एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः प्रतिनिधि सभया संगठितया महाभियोग परामर्शन समित्या प्रधान न्यायाधीशा चोलेन्द्र शमशेर जबरा इत्यस्मात् प्रकथन विवरणम् गृहीतमस्ति सीमा प्रसाद वर्तिनी संसद सचिवालय ह्या उपविष्टे उपवेशे प्रधान न्यायाधीशेन जबरा इत्यनेन समित्या पृष्ठान् प्रश्नान् उत्तरयता महाभियोगः स्वतः निष्क्रियो जातः संसदः सम्मानाय आत्मना उपवेशे उपस्थितमिति उक्तमिति समितेः सदस्यः नेपाली कांग्रेस दलस्य सचेतक पदीयश्च मीन विश्वकर्मा अज्ञापयत् प्रकथन विवरणे प्रधान न्यायाधीशेन जबरा इत्यनेन सीमातो बहिर्गत्वा उत्तरं प्रदत्तम् प्रत्येकं प्रश्नस्य उत्तरे समितेः सदस्यैः प्रतिप्रश्नश्च पृष्टः इत्यतः प्रकथन विवरण ग्रहण क्रमः वर्धितो वर्तते समितेः त्रिचत्वारिंशद् नेपाल बार एसोसिएशन संघस्य एकविंशतिश्चेति कृत्वा चतुष्षष्ट्यां प्रश्नेषु सत्सु ह्या चतुर्णां प्रश्नानामेव उत्तरं गृहीतमिति समितेः सदस्यः कृष्ण भक्त पोखरेलः अबोधयत् प्रधान न्यायाधीशः जबरा प्रकथन विवरण प्रदानाय अद्यापि आहूतो वर्तते राष्ट्रिय सभायाः अन्तर्गतया विधायन व्यवस्थापन समित्या एतद् वैक्रमाब्दं नागरिकता विधेयकं बहुमतेन पारितीकृतं वर्तते राष्ट्रपतिना विद्यादेवी भण्डारिणा ससन्देशं पुनर्विचाराय संसदि प्रतिप्रेषितं नागरिकता विधेयकम् आदृत्य वितं विमर्शनमनु विधायन व्यवस्थापन समितेः ह्यस्तनोपवेशेन प्रस्तुतरूपेणैव विधेयकमिदं पारितीकृतमस्ति सर्वकारेण अग्रेसारिते एतद् वैक्रमाब्दे नागरिकता विधेयके समितेः उपवेशे समितेः सभापतिना नारायण दत्त मिश्रेण निर्णयतम् प्रस्तुते सति उपवेशस्य बहुमतेन विधेयकमिदं प्रस्तुतरूपेणैव पारितीकृतं वर्तते विधेयकम् आधृत्य प्रमुख प्रतिपक्षिणो नेकपा एमाले दलस्य सांसदैः सह कतिचित् सांसदाः भिन्नमतं व्यक्तवन्तः विधायन व्यवस्थापन समितेः उपवेशे गृहमन्त्री बालकृष्ण खाण विधेयकम् आधृत्य विमर्शनाय पर्याप्त समयस्य अभावात् संशोधनाय प्रवर्तनं सम्भवं न भवतीति चर्चेन अभासत नेपालिनः सन्तोपि अनागरिकाणां रूपेण जीवितुं बाध्यानां नागरिकाणां कृते विधेयकस्य शीघ्रं क्रियान्वयनम् आवश्यकं वर्तते गृहमन्त्री खाण सर्वकारेण प्रादेशिक परिचयेण सह नागरिकता प्रदानत्वेन स्वघोषणायाः सम्बन्धे महिलायाः सामाजिक प्रतिष्ठायाम् आघात निरोधनत्वेन च कार्यविधि निर्मास्यते इति वर्णयन अब्रवीत् वैवाहिकाङ्गीकृतानां जनानाम् अवधेः सम्बन्धे पश्चात् विमृश्यापि सहमत्या अग्रे वर्धितुं शक्यते राष्ट्रपतिः विद्यादेवी भण्डारी नेकपा माओवादी केन्द्रस्य अध्यक्षेण पुष्पकमला दाहाल प्रचण्डेन सहितैः नेतृभिः सह नागरिकता विधेयकस्य सम्बन्धे ह्यो व्यमृशत शीतल निवासवर्तिनी राष्ट्रपति कार्यालये सम्पन्ने विमर्शने अध्यक्ष प्रचण्डः अवोचत् सर्वकारेण प्रस्तुतं 63-2000 वैक्रमाब्दं नेपाल नागरिकताधिनियमं संशोधयितुं निर्मितं विधेयकं विषयीकृत्य विहितम् अनावश्यक राजनीतिक करणं दुःखदं वर्तते अध्यक्ष प्रचण्डः जन्मसिद्ध नागरिकाणां सन्ततीनां राज्यविहीनावस्थां समाप्तुं विधेयकम् आनीतमिति समस्पष्टयत् विमर्शने अध्यक्षेण प्रचण्डेन तात्कालिकेन प्रधानमन्त्रिणा केपी शर्मा ओलिना प्रस्तुत्य राष्ट्रपतिना प्रमाणीकृतस्य अध्यादेशस्य व्यवस्थायाः अनुसारेणैव विधेयकम् आनीतमिति उक्तमिति अध्यक्षस्य प्रचण्डस्य स्वकीय सचिवः रमेश मल्लः असूचयत् विमर्शने अध्यक्षेण चण्डेन सह वरिष्ठोपाध्यक्ष नारायण काजी श्रेष्ठ उपाध्यक्ष कृष्णबहादुर महरा उपमहासचिवौ वर्षमान पुन जनार्दन शर्माणौ चेति नेतार सहभागिन आसन् सत्ता गठबन्धनस्य कार्यदलस्य ह्य उपविष्टे उपवेशे सत्तातो वैस्थितैः दलैः सहापि नैर्वाचनिकं सहकार्यस्य विषये विमृष्टम् अस्ति बालबाटार वर्तिनी प्रधानमन्त्री निवासे उपविष्टे तस्मिन् उपवेशे लोकतान्त्रिक समाजवादी प्रवृत्तिनी दलान्यपि घटबन्धने सहभागिनी विधातुं विमृष्टमिति कार्यदलस्य सदस्य संचार सूचना प्रविधि मन्त्री च ज्ञानेन्द्र बहादुर कार्की ज्ञापितवान् मन्त्री कार्की सत्तातो वैस्थितेषु दलेषु सम्प्रत्येव घटबन्धने समाविष्टेषु वित्तेषु सत्सु दलानां मध्ये स्थानावण्टनाय काठिन्यं भवतीति हेतोः पूर्वं सत्ता गठबन्धनस्य पञ्चानां तेषां दलानां मध्ये स्थानावण्टनस्य विषयं निर्णयं प्राप्य तदनन्तरम् एव अन्येषां दलानां गठबन्धने समावेशनस्य विषये विमृष्टुं सहमतिः धृतेति अबोधयत्। मन्त्री कार्की सत्ता गठबन्धनस्य पञ्चानां दलानां मध्ये स्थानावण्टनस्य विषयः प्राय सहमत्युन्मुखोऽस्ति। अद्य दिवा उपविश्यमानेन उपवेशेन कतिचित् राजनीतिक निर्णयान् विधाय अन्तिमरूपं प्रदीयते इति च अबोधयत्। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली कथयति वर्तमान सर्वकारेण सत्ता गठबन्धनेन च अधिक्रान्ताय कालापानी लिम्पियाधुरा लिपुलेख वर्तिन्य भूम्य प्रत्यानयनस्य विषये प्रयत्नम् विधेयम्। नेकपा एमाले दलस्य कञ्चनपुर शाखया ह्य महेन्द्रनगरे आयोजितायां जनसभायाम् अध्यक्ष ओली अभाषत सर्वकारस्य नेतृत्वं विदधान हि सत्ता गठबन्धनस्य शीर्ष नेतृभिः भारत सर्वकारेण सह अतिक्रान्ताय भूम्य प्रत्यावर्तनस्य विषये प्रयत्नम् विधातव्यम्। भूमिविहीनानां भूमिश्रमिकाणाम् आदिवासिनां विपन्न जनतायाश्च दलम् एमाले दलम् अस्ति इति चर्चयन् अध्यक्ष ओली अभाषत समृद्धो नेपालः सुखिनो नेपालिनश्चेति परिकल्पनया एमाले दलम् अग्रे वर्धितमस्ति। नेकपा एकीकृत समाजवादी दलस्य अध्यक्ष माधव कुमार नेपालः निगदति आगामिने निर्वाचनाय गठबन्धने सन्तुलितरीत्या स्थानानामावण्टनम् विधातव्यम्। युवसंघ नेपालेन गतदिवसतः आयोजितस्य मेची महाकाली जागरणाभियानस्य शुभारम्भ कार्यक्रमे अध्यक्षो नेपालः विगत समये आत्मभिः राष्ट्रिय राजनीतौ निरूढाया भूमिकायाः अवमूल्यनम् अपेक्षितम् सत् तत् स्वीकार्यम् न भवतीति अभाषत। नेकपा एकीकृत समाजवादी दलस्य वरिष्ठ नेता झलनाथ खनालः तात्कालिकेन नेतृत्वेन दक्षिणपन्थिना अवसरवादेन सह सहमतिर्विहितेति कारणेन आत्मभ्यं दलाभ्यन्तरे विद्रोहस्य अवस्था आगतेति स्पष्टयति। सुर्खेत जनपदे ह्य आयोजितायां जनपदस्तरीय कार्यकर्तृमेलायां वरिष्ठ नेता खनालः दीर्घकालं यावत् अन्तर्विरोधस्य संचलनेऽपि मुख्य नेतृत्वस्य कार्यशैल्यां सुधारस्य सम्भावनायाः अदर्शनमनु पृथक् दलं संघटनीय अभूदिति स्पष्टीकृतवान्। वरिष्ठ नेता खनालः तात्कालिकस्य नेकपा दलस्य विघटने तदनन्तरं नेकपा एमाले दलस्य विभाजने च तात्कालिकं मुख्य नेतृत्वमेव दायित्वभागस्थिति न्यश्चिनोत्। शिक्षा विज्ञान प्रविधि मन्त्री देवेन्द्र पौडेलः निगदति पुस्तकं प्रति नवीन सन्ततेः अभिरुचेः न्यूनीभवनात् अध्ययनानुसन्धानस्य क्षेत्रं दुर्बलं सम्भूतमस्ति। पञ्चदश पुस्तकालय दिवसस्य अवसरे मूल समारोह समित्या ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे शिक्षामन्त्री पौडेलः नवीन सन्ततौ पुस्तकानां पत्रपत्रिकानाञ्च अध्ययनस्य परम्परा विलोप्यमानास्ति एवं मोबाइल चलभाषे लिखितं शीर्षकं दृष्ट्वा धारणां निर्माय अग्रे वर्धनस्य प्रचलनं प्रारब्धम् अस्ति इति अवोचत। वर्षेस्मिन् पाठयेम नैरन्तर्येण शिक्षायै पुस्तकालयं गच्छेम इति समाघोषेण सह शिक्षा विज्ञान प्रविधि मन्त्रालयेन पञ्चदश पुस्तकालय दिवस समायोजितो वर्तते। अद्य हिन्दू महिलाः सविधे ऋषि पञ्चमी पर्व समायोजयन्त्यः सन्ति। ऋषि पञ्चमी पर्वणि हिन्दू महिलाः प्रातःकालिकीं नित्यक्रियां समाप्य गंगायां नद्यादौ ह्रदक कूप तडाग धारादिशुभायित्य आचारानुसारेण अपामार्ग खण्डानां षष्टोत्तर त्रिशतेन दन्तधावनं विधाय स्नान्ति। इति समाचाराः।